एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। निरपेक्षतया निर्धनानां सम्पूर्णानां जनानां कृते निःशुल्कतया स्वास्थ्य सेवां प्रदातुं स्वास्थ्य सुरक्षण कोष सुधार परामर्श कार्यदलेन परामृष्टमस्ति। प्रतिवेदने सर्वान् नागरिकान् कार्यक्रमे समावेष्टुं परामृष्टं वर्तते। कार्यदलेन आधारभूतां स्वास्थ्य सेवां अन्यै सामाजिक सुरक्षा सम्बद्धै कार्यक्रमै सह संयोज्य स्वास्थ्य सुरक्षण कार्यक्रमम् एकीकर्तुं परामृष्टं वर्तते। कार्यदलस्य प्रतिवेदनं परामर्शं च गृह्णन् प्रधानमन्त्री केपी शर्मा ओली स्वास्थ्य सुरक्षण सुधार परामर्श कार्यदलस्य प्रतिवेदनस्य आधारे यथाशीघ्रं सुधारस्य कार्ययोजनां निर्मातुं स्वास्थ्य मन्त्रालयं निर्दिष्टवान्। प्रधानमन्त्री ओली देशं रोगमुक्तं विधातुं नागरिकाः शिक्षणीया, रोगग्रस्ते सति वित्तं विना चिकित्साभावस्य स्थितिश्च न आनेया इति प्रावोचत्। रूपन्देही जनपदस्य बुचवल वर्तिनी सुप्रीम सहकारी संस्थायाः वित्तापचलन प्रकरणे जनपद सर्वकारीयाधिवक्त्री कार्यालयेन रूपन्देही जनपद न्यायालये अभियोगपत्रं पञ्जीकृतमस्ति। वञ्चनस्य संघटितापराधस्य चाभियोगे सर्वकारीयाधिवक्त्री कार्यालयेन ह्यः न्यायालये अभियोगपत्रं पञ्जीकृतमस्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विदस्य विरुद्धं वैयक्तिक रूपेण द्वयोः कोट्योः, सामूहिक रूपेण च द्वयोः कोट्योः रूप्यकाणां, संहत्य चतस्रीणां कोटीनां रूप्यकाणां न्यासवित्तस्य याचनया सह अभियोगपत्रं पञ्जीकृतं वर्तते। सुप्रीम सहकारी संस्थायाः वित्तापचलनस्य विषये प्रहरिणा प्रस्तुतम् इदं द्वितीयं पूरकानुसन्धानं वर्तते। एतत्पूर्वं रवि लामिछाने विदस्य गृहमन्त्रित्वसमये सुप्रीम सहकारी संस्थायाः अभियोगः वैशाख मासस्य तृतीये दिवसे न्यायालये पञ्जीकृतमासीत्। सुर्खेत जनपदे समानितेषु हरित व्यञ्जनेषु विषौषध प्रयोगस्य मात्रा न्यूना न जातेति परीक्षणेन स्पष्टीभूतमस्ति। वीरेन्द्रनगर स्थितस्य कृष्यापण प्रयोगशाला अन्तर्गतस्य विषावशेष द्रुत विश्लेषण प्रयोगशालायाः अनुसारेण अधुनावधि यावत् विहितेषु परीक्षणेषु व्यञ्जनेषु अखाद्यस्य कार्बामेट अर्गानो फस्फेट समूहस्य विषौषधस्य मात्रा अधिका प्राप्ता अस्ति। एतत्पूर्वं सुर्खेत जुम्ला जनपदयोः उत्पादितेषु आलुकेषु च कार्बामेट समूहस्य विषौषधस्य मात्रायाः आधिक्यस्य प्राप्तेः अनन्तरं पृथक् संस्थाप्य विषौषधानां निष्क्रियत्वं सम्पादितमासीत्। काष्ठमण्डपोपत्यका विकास प्राधिकरणेन काष्ठमण्डपोपत्यकायाः सप्तम ओडा क्षेत्रस्थिते धोबीखोला तचीय मार्गे सर्वकारीय भूमिम् अतिक्रम्य निर्मितानि भवनानि त्रोट्यन्ते। प्राधिकरणस्य समूहेन ह्य काष्ठमण्डपस्य चावहिल स्थितानां भूमिकर कार्यालयस्य समीपवर्तिनि भवनानि भञ्जयितुं प्रारब्धमस्ति। भवन निर्माणावसरे सर्वकारीय भूमिम् अतिक्रम्य निर्मितेः कारणात् भवनानां भञ्जनस्य निर्णयो विहितोऽस्तीति प्राधिकरणेन ज्ञापितं वर्तते। धोबीखोला तटीय मार्गे, बागमती नदी तटीय मार्गे च आसन्न पञ्चशत रोपनी परिमिता सर्वकारीया भूमिम् अतिक्रान्ता अस्तीति प्राधिकरणेन ज्ञापितं वर्तते। उप प्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः निगदति देशस्य अर्थतन्त्रे सुधारः जायमानोऽस्ति। अर्थमन्त्रालये ह्यः आयोजिते पत्रकार मेलन कार्यक्रमे अर्थमन्त्री पौडेलः परवर्तिनि समये देशस्य अर्थतन्त्रस्य सुधाराय सर्वकारेण अर्थक्षेत्रस्य विविधानां विधीनाम् अध्यादेशमाध्यमेन संशोधनं विहितमस्ति इति अगदत्। अर्थमन्त्री पौडेलः निवेशस्य वृत्त्युपार्जनस्य आर्थिक वृद्धेश्च सहयोगार्थम् आर्थिकक्षेत्रस्य प्राचीनः विधिनियमः अध्यादेशः संशोधितः सन्तीति उदैरयत्। सर्वोच्च न्यायालयेन राष्ट्रिय परिचय पत्रस्य क्रियान्वयनं वारयितुं प्रस्तुतं याचिका निवेदनं निरस्तीकृतं वर्तते। प्रधान न्यायाधीशस्य प्रकाश मानसिंह राउत इत्यस्य, न्यायाधीशस्य अब्दुल अजीज मुसलमान इत्यस्य, न्यायाधीशस्य नृपधोज निरौला इत्यस्य च न्यायपीठेन निवेदनं निरसयितुं निर्णीतमस्ति। न्यायालयेन याचिका निवेदने निरस्ते सति सर्वकारस्य कार्यदिशा प्रशस्ता जाता अस्ति। मदन भण्डारी राजमार्गस्य पूर्व खण्डान्तर्गतस्य झापा जनपदस्य बाहुण्डागी स्थानात् सुनसरी जनपदस्य धरान पारेन्तिकस्य मार्गस्य 80% निर्माण कार्यम् सम्पन्नमस्ति। अस्मिन् मार्गखण्डे संघीय सर्वकारस्य 17,000,000,000 रूप्यकाणि व्ययीभूतानि वर्तन्ते। मदन भण्डारी राजमार्ग योजना कार्यालयस्य सूचनाधिकारिणः सुभाष कुमार दत्तस्य अनुसारेण राजमार्गस्य 95% किलोमीटर परिमित मार्गस्य निर्माण कार्यम् आसन्न 5 वर्षाणि पूर्वं प्रारब्धम् आसीत्। राष्ट्रसभायाः सार्वजनिक नीति प्रत्यायोजित विधायन समितौ त्रिभुवन विश्वविद्यालयस्य 49,000,000,000 नियमस्य प्रत्यायोजित विधायन विषये विमृष्टमस्ति। समितेः ह्यस्तनोपवेशे सांसदः त्रिभुवन विश्वविद्यालयस्य कार्यकारी परिषदा विधि विपरीतं नियमावल्या विनियमावल्याः कार्यविधिनां च निर्माणं विधाय क्रियान्वयने आनीय अनावश्यकः व्ययभारः सृष्टोऽस्तीति अभाषन्त। संघीय संसदः संयुक्त समिति राज्यस्य निर्देशक सिद्धान्त नीति दायित्वयोः क्रियान्वयनानुगमन मूल्यांकन समित्या प्रधानमन्त्रिणः मन्त्रिणां च संसदि अनुपस्थित विषये सर्वकारस्य ध्यानाकर्षणं विहितमस्ति। समितेः स्तनोपवेशे प्रधानमन्त्रिणा निर्दिष्टस्य कस्यापि मन्त्रिणः सहभागितायाः अभावे समितेः सभापतिः ठाकुरप्रसाद गैरे संसदीय समितेः प्रत्येकम् उपवेशेषु प्रधानमन्त्रिणः मन्त्रिणाञ्च अनिवार्यतया उपस्थिति विषये सर्वकारस्य ध्यानाकर्षणं विहितवान् अस्ति। गृहमन्त्री रमेशलेखकः निगदति सर्वकारस्योद्देश्यं देशे आर्थिक समृद्धि प्राप्ति वर्तते। नेपाल प्रेस यूनियन संघेन ह्य महेन्द्रनगरे आयोजिते पत्रकार सम्मेलने गृहमन्त्री लेखकः देशे निवेशस्य वातावरणं निर्मातुं उद्योग व्यवसाय विकासार्थं सर्वकारेण काश्चित् विधिं संशोधयितुं अध्यादेशः आनीतोऽस्तीति प्रावोचत्। इजरायल देशस्य हमास समूहस्य च मध्ये युद्धविरामस्य क्रियान्वयनं प्रारब्धमस्ति। हमास समूहस्य सशस्त्रशाखयो ह्य युद्धविराम समिदायाः अनुसारेण मुक्तानां तिसृणां महिलाबन्धकानां नाम्नां प्रकाशनानन्तरं युद्धविरामस्य क्रियान्वयनं प्रारब्धमस्ति इति समाचारः।